इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य वारसाव नगरे पोलैण्डस्य प्रधानमन्त्रिणा डोनाल्ड टस्क इत्यनेन सह प्रतिनिधिस्तरीयं संवादं करोति। भारतस्य प्रतिवचनमस्ति यत् बांग्लादेशे जलौघस्य स्थितिः त्रिपुरायाः गुमती नद्याः भारतीय बन्धस्य जलस्य त्यागस्य कारणेन नास्ति। अखिल भारतीय आवासीय चिकित्सक संघेन चिकित्सा विज्ञान संस्थानं डॉ राम मनोहर लोहिया चिकित्सालयेन च कर्मविरामः स्थगितः। आतंकवादः शान्ति विकासाय वैश्विकः समाह्वानम् अस्ति इति भारतेन उक्तम्। आतंकवाद विरोधि व्यापक अन्तर्राष्ट्रिय सम्मेलनस्य आह्वानं च कृतम्। राष्ट्रपति द्रौपदी मुर्मू राष्ट्रपति भवने वैज्ञानिकान् सम्मानितवती। प्रोफेसर गोविन्द राजन पद्मनाभन वर्याय प्रदत्तः अस्य वर्षस्य विज्ञान रत्न पुरस्कारः। अपि च दिल्ल्यारक्षिबलस्य विशिष्ट दलेन उत्तरप्रदेशे राजस्थाने झारखण्डे च 17 स्थानेषु सहसान्वेषणम् आचरितम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य अपराह्ने वारसावनगरे पोलैण्डस्य प्रधानमन्त्रिणा डोनाल्ड टस्क इत्यनेन सह प्रतिनिधिस्तरीयं संवादं करोति। द्वौ नेतारौ परस्परं उभयोः देशयोः सम्बन्धानां पुनरवलोकनं कृत्वा विविध विषयाणां विषये च विचार विनिमयं करिष्यतः। एतदुपवेशनं परस्परं रुचीनां क्षेत्राणां विषयाणां च अन्वेषणाय उभाभ्याम् अवसरं प्रदास्यति। अद्य प्रधानमन्त्री नरेन्द्र मोदी वारसावनगरस्य चांसलरी इत्यस्मिन् स्थाने पूर्ण राजकीय समारोह पूर्वकं सत्कृतो जातः। मोदिनः स्वागताय पोलैण्डस्य प्रधानमन्त्री डोनाल्ड टस्कः अपि अवसरेऽस्मिन् उपस्थितः आसीत्। द्विपक्षीय वार्तालापस्य अनन्तरं श्रीमोदी पोलैण्डस्य राष्ट्रपतिम् आन्द्रेज डूडा इत्यमुं मिलिष्यति। ततश्च प्रधानमन्त्री अज्ञात सैनिकानां समाधौ पुष्पमालाम् अर्पयिष्यति। श्रीमोदी तत्र पोलैण्ड देशे भारतीय व्यापारिभिः व्यावसायिभिः साकं संवादम् अपि आयोजयिष्यति। गतरात्रौ वारसावनगरे भारतीय प्रवासिनः उद्दिश्य भाषमाणः प्रधानमन्त्री मोदी उक्तवान् यत् भारतं सर्वैः सह सम्पर्कं साधयितुम् इच्छति, सर्वेषां विकासं च कल्याणं च कामयते। मोदी उक्तवान् यत् भारतं भूरि वर्षाणि यावत् अन्येभ्यः देशेभ्यः दूरवर्तनस्य नीतिम् उपयुक्तवान्, किन्तु अद्य भारतस्य नीति सर्वेषां राष्ट्राणां समीपं गमनस्य अस्ति। प्रधानमन्त्रिणा स्पष्टम् उक्तम् अस्ति यत् अयं युद्धस्य कालः नास्ति, संवादेन कूटनीत्या च संघर्षस्य समाधानं कर्तुं भारतं विश्वासं करोति। प्रधानमन्त्री मोदी क्षेत्रस्य शान्तिम् उद्दिश्य भारतस्य दृष्टिकोणम् उद्घाटितवान्। विश्वं भारताय विश्वबन्धुरूपेण सम्मानं ददाति। पोलैण्ड देशः मध्य यूरोपे भारतस्य महत्वपूर्णः सहभागी देशः अस्ति। भारतस्य पोलैण्ड देशेन सह द्विपक्षीय व्यापारः प्रायः 6 अर्बुद डॉलर्स मितः अस्ति। मोदिनः इयं यात्रा भारतस्य महत्वपूर्ण यूरोपीय देशैः साकं सम्बन्धानाम् अभिवृद्धिं दर्शयति, अथ च भारतस्य अन्ताराष्ट्रिय सम्बन्धेष् सक्रियतां प्रदर्शयति। स्वकीय द्वयोः राष्ट्रयोः यात्रायाः द्वितीये अन्तिमे च चरणे प्रधानमन्त्री नरेन्द्र मोदी युक्रेनस्य राष्ट्रपतेः व्लादिमीर जेलेंस्की इत्यस्य निमन्त्रणे तत्र गमिष्यति। 1992 वर्षे युक्रेन भारतयोः मध्ये राजनैक सम्बन्धाः स्थापिताः आसन्। राजनैक सम्बन्धानां स्थापनानन्तरं प्रथमवारं भारतीय प्रधानमन्त्रिणः युक्रेनस्य एषा यात्रा अस्ति। कीवनगरे प्रधानमन्त्री मोदी तत्रत्येन राष्ट्रपतिना सह व्यापार निवेश शिक्षा सांस्कृतिक सम्बन्धानां विषये चर्चां करिष्यति। भारतस्य प्रतिवचनमस्ति यत् बांग्लादेशे जलौघस्य स्थितिः त्रिपुरायाः गुमती नद्याः भारतीय बन्धस्य जलस्य त्यागस्य कारणेन नास्ति। विदेशमन्त्रालयः अद्य घोषणाम् अपि कृतवान् अस्ति यत् बांग्लादेशे इदं मन्यते यत् बांग्लादेशस्य पूर्वीय सीमक्षेत्रीय जनपदेषु जलौघस्य स्थितिः त्रिपुरायाः गुमती नद्याः डम्बुरबन्धस्य जलस्य त्यागस्य कारणेन अस्ति। मन्त्रालयः एतत् सर्वं मिथ्या उक्तवान्। विदेशमन्त्रालयस्य अनुसारं डम्बुरबन्धः बांग्लादेशस्य सीमान्तः 20-100 किलोमीटरमिते दूरे अस्ति। मन्त्रालयः उक्तवान् यत् भारतं द्विपक्षीय परामर्शेण चर्चामाध्यमेन च नदीजलप्रबन्धनस्य समस्यानां समाधानं कर्तुं प्रतिबद्धमस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। आतंकवादः शान्ति विकासाय वैश्विकः समाह्वानम् अस्ति इति भारतेन उक्तम्। आतंकवाद विरोधि व्यापक अन्तर्राष्ट्रिय सम्मेलनस्य आह्वानं च कृतम्। भारतस्य संयुक्त राष्ट्र संघ मिशनेत्यस्य प्रभारी आर रविन्द्रः परिषदः अध्यक्षः सियेरा लियोन इत्येषः शान्ति निर्माण स्थापनायाः च विषये उच्चस्तरीय मुक्त विमर्शे वदति स्म यत् शान्ति निर्माणार्थं विकासस्य महत्वम् अवलोकयता भारतं वैश्विक दक्षिण देशैः सह व्यापक विकास सहभागिता कृता अस्ति तथा च एतासां विकास परियोजनानां संचित मूल्यम् अधुना 40 अरब डॉलर मूल्यात् अधिकमस्ति। श्रीरविन्द्र महोदयः अवदत् यत् भारतं संयुक्त राष्ट्र संघस्य सुरक्षा परिषदः स्थायि सदस्यतायाः विस्तारस्य विरोधं कुर्वतां जनानां समर्थनं न करोति ये अफ्रीका देशं तस्य योग्यस्थानात् दूरं कुर्वन्ति। राष्ट्रपते द्रौपदी मुर्मुः राष्ट्रपति भवने वैज्ञानिकान् सम्मानितवती। प्रोफेसर गोविन्द राजन पद्मनाभन वर्याय प्रदत्तः अस्य वर्षस्य विज्ञान रत्न पुरस्कारः। कृषिविज्ञानस्य क्षेत्रे विज्ञानश्रीः सम्मानः डॉ आनन्द राम कृष्णन वर्याय समर्पितः। परमाणु ऊर्जा क्षेत्रे च एषः सम्मानः मुम्बई भाभा परमाणु अनुसन्धान केन्द्रस्य डॉ आवेश कुमार त्यागी वर्याय प्रदत्तः। जीव विज्ञान क्षेत्रे विज्ञानश्रीः सम्मानः पुणे स्थितस्य भारतीय विज्ञान शिक्षानुसन्धान संस्थानस्य प्रोफेसर जयन्त भालचन्द्र उडगांवकर वर्याय प्रदत्तः। अखिल भारतीय आवासीय चिकित्सक संघेन चिकित्सा विज्ञान संस्थानं डॉ राम मनोहर लोहिया चिकित्सालयेन च कर्म विराम स्थगितः। भारतस्य सर्वोच्च न्यायालयस्य निर्देशस्य प्रतिक्रियारूपेण एषः निर्णयः कृतः। एम्स आरडीए इत्येतौ विज्ञप्तौ उक्तवन्तौ यत् आरजी कर चिकित्सा महाविद्यालयस्य घटनायाः अनन्तरं देशे सर्वत्र स्वास्थ्य सेवा कर्मचारिणां व्यापक सुरक्षायाः विषये सर्वोच्च न्यायालयस्य स्वतः संज्ञानं कार्याचरणं च प्रशंसनीयम् अस्ति। दिल्ल्यारक्षिबलस्य विशिष्टदलेन उत्तरप्रदेशे राजस्थाने झारखण्डे च 17 स्थानेष् सहसान्वेषणम् आचरितम्। अलकायदा आतंकी मॉड्यूल इत्यनेन सम्बद्धाः प्रायः 14 संदिग्धाः आतंकिनः निगडिताः सन्ति। राजस्थानस्य भीवाडीतः 6 जनाः निगडिताः ये शस्त्र प्रशिक्षणं कुर्वन्तः आसन्। एतदतिरिक्तं झारखण्डात् उत्तरप्रदेशाच्च प्रायः 8 संदिग्धाः निगडिताः। राज्याः चिकित्सकः इस्तियाकः एकं मॉड्यूल इत्याख्यं प्रकल्पं संचालयति स्म। सः देशे गभीरम् आतंकवाद क्रियाकलापं निष्पादयितुं सज्जता कुर्वन् आसीत्। सम्प्रति विभिन्न स्थानेष् निरीक्षणं प्रचलति। रांचीनगरे 15, राजस्थाने 1, अलीगढ़े च 1 स्थानेष् सहसान्वेषणं जायते। अनेकस्थानात् शस्त्राणि विस्फोटकादीनि च प्राप्तानि। इति वार्ताः।